योगेन चित्तस्य पदेन वाचाम्
योगेन चित्तस्य पदेन वाचाम्
मलं शरीरस्य च वैद्यकेन
मलं शरीरस्य च वैद्यकेन
योपाकरोत्तं प्रवरं मुनीनां
योपाकरोत्तं प्रवरं मुनीनां
पतञ्जलिं प्राञ्जलिरानतोऽस्मि आबाहु पुरुषाकारम् शङ्खचक्रासि धारिणम् सहस्रशिरसं श्वेतम् प्रणमामि पतञ्जलिम् हरिः ॐ
हरिः ॐ।